इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्याम् अबूधाबी इत्येतस्य युवराज्ञा शेख खालिद बिन मोहम्मद बिन जायद अल नह्यान इत्यमुना सह द्विपाक्षिक संवादं विहितवान्। विदेशमन्त्री डॉ एस जयशंकरः रियादनगरे भारत खाति सहयोग परिषदः विदेशमन्त्रिणाम् एकस्मिन् उपवेशने भागं गृहीतवान्। रक्षामन्त्रालयेन सुखोई 30 MKI इति विमानाय 240 AL 31 FP इत्येतेभ्यः वैमानिकीय ईंधनेभ्यः हिन्दुस्तान एयरोनॉटिक्स लिमिटेड इत्यमुना उद्यमेन सह 26,000 करोड़ रूप्यकाणां एकम् अनुबन्धपत्रं हस्ताक्षरितम्। केन्द्रीय वित्तमन्त्रिणः निर्मला सीतारामन इत्यस्याः आध्यक्षे वस्तुसेवाकर परिषदः 45वीं सभा नवदिल्ल्याम् अद्य समनुष्ठिता। अपि च भारतीय ऋतुविज्ञान विभागेन ओडिशा राज्ये अतिवृष्ट्याः सम्भावनाम् अवलोक्य रक्तवार्णिकी जनसंचेतना प्रकाशिता। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्याम् अबूधाबी इत्येतस्य युवराज्ञा शेख खालिद बिन मोहम्मद बिन जायद अल नह्यान इत्यमुना सह संवादं विहितवान्। उभौ नेतारौ बहुविधान भारत संयुक्तारब अमीरात सम्बन्धान् सुदृढीकर्तुं नवीनेषु प्रचल्यमानेषु व्यापक रणनीतिक सहभागित्वं संवर्धयितुं च विभिन्नेषु पक्षेषु चर्चां साधितवन्तौ। असौ युवराजः राजघट्टे महात्मा गांधी वर्याय श्रद्धांजलिम् अपि समर्पितवान्। तदनु राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया सह मेलनं कृतवान्। अवधेयं वर्तते यत् ह्यः अबूधाबी इत्येतस्य युवराजः शेख खालिद बिन मोहम्मद बिन जायद अल नह्यान इत्येषः भारतस्य यात्रायां नवदिल्लीं सम्प्राप्तवान्। युवराजः श्वः एकस्य व्यावसायिक मञ्चस्य समारोहे भागग्रहणाय मुम्बईनगरं प्रति यास्यति। विदेशमन्त्री डॉ एस जयशंकरः रियादनगरे भारत खाति सहयोग परिषदः विदेशमन्त्रिणां प्रथमोपवेशनावसरे खाति सहयोग परिषदः देशानां ब्राजीलस्य च स्व समकक्षैः सह नैकानि द्विपाक्षिकोपवेशनानि कृतवान्। एतासु चर्चासु द्विपाक्षिक क्षेत्रीय वैश्विक प्रकरणानां एका विस्तृत श्रृंखला सम्मिलिता आसीत्। सऊदीदेशीयेन विदेशमन्त्रिणा फैजल बिन फरहान इत्यनेन सह उपवेशनावधौ डॉ जयशंकरः द्विपाक्षिक सम्बन्धानां प्रगतेः समीक्षां कृतवान्। सहैव वैश्विक क्षेत्रीय प्रकरणयोः विचाराणाम् आदान प्रदानम् अपि सञ्जातम्। कुवैतदेशीयेन विदेशमन्त्रिणा अब्दुल्ला अली अल याहिया इत्यनेन सह डॉ जयशंकरस्य चर्चा सद्य एव कुवैतदेशे सम्पन्नोपवेशनाधारितम् आसीत्। बहरीनदेशस्य विदेशमन्त्रिणा डॉ अब्दुल्लातिफ बिन राशिद अल जायनी इत्यनेन सह वार्तावधौ द्वौ पक्षौ स्वीय द्विपाक्षिक सम्बन्धानां सकारात्मकं मूल्यांकनं कृतवन्तौ। ओमानदेशस्य विदेशमन्त्रिणा बद्र अल बुसैदी इत्यनेन सह वार्तावधौ भारतोमानयोः मध्ये रणनीतिक सहमतिं सुदृढीकरण विषये चर्चा अपि जाता। रक्षामन्त्रालयेन सुखोई 30 MKI इति विमानाय 240 L1 31 FP इत्येतेभ्यः वैमानिकीय ईंधनेभ्यः हिन्दुस्तान एयरोनॉटिक्स लिमिटेड इत्यमुना उद्यमेन सह 26,000 करोड़ रूप्यकाणां एकम् अनुबन्धपत्रं हस्ताक्षरितम्। वस्तु सेवाकर परिषदः 45वीं सभा अद्य नवदिल्ल्याम् आयोजिता। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन अस्याः सभायाः अध्यक्षतां कृतवती। अन्तिमा एषा वस्तु सेवाकर परिषद सभा अस्मिन् वर्षे जून मासे आयोजिता, यस्यां सर्वेषु आयस लौह स्फटीयन धातूनां दुग्ध पेटिकासु 12% वस्तु सेवाकरस्य एकरूप मूल्यस्य अनुशंसा कृतासीत्। परिषदा एतदपि अनुशंसितं यत् भारतीय रेलवे द्वारा सामान्य जनेभ्यः प्रदत्ता इयं सेवा यथा स्थात्र चिटिका विक्रयणं सेवानिवृत्ति कक्षस्य प्रतीक्षालयस्य च सौविध्यं विद्युत कोषेन संचालित यान सेवाः च सम्मिलिताः सन्ति, परञ्च एतेषु वस्तु सेवा कर इति न प्रयुज्यते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय ऋतुविज्ञान विभागेन संसूचितं यत् अद्य तटीय आन्ध्रप्रदेश यमन ओडिशासु अतिवृष्ट्याः संभावना दरीदृश्यते। सहैव श्वः यावत् पूर्वीय मध्यप्रदेशे छत्तीसगढ़े च अतिवृष्टिः भवितुं शक्यते। आगामि त्रिदिवसावधौ नागालैंड मणिपुर मिजोरम त्रिपुरा राज्येषु अपि अत्यधिकवृष्टिः भवितुं शक्यते। ऋतुविभागेन अनुमानितं यत् ओडिशा तेलंगाना दक्षिण आंतरिक कर्नाटक केरल माहे इत्येतेषु स्थलेषु अतिवृष्टिः संभाव्यते। द्वितीयम् अन्ताराष्ट्रिय बौद्ध प्रसार माध्यम सम्मेलनम् अस्य मासस्य एकादश दिनांके नवदिल्ल्याम् आयोजयिष्यति। अस्य सम्मेलनस्य शीर्षको विद्यते संघर्षम् अपाकर्तुं सतत विकासाय च गभीर चिन्तनम् इति। सम्मेलनस्योद्देश्यं नैतिक पत्रकारितां गभीर चिन्तनं च वर्धयितुम् अपि च एशिया देशे एशिया क्षेत्रे उपजीविका बौद्ध प्रसार माध्यमस्य एकस्य अन्तर्जालस्य स्थापनमिति अस्ति। एतस्मिन् सम्मेलने अष्टादश देशानां वार्ताहर प्रतिनिधयः भागं ग्रहीष्यन्ति। जम्मू कश्मीर राज्ये अद्य राजौरी जनपदे नियंत्रण रेखां निकषा सेनया द्वौ आतंकवादिनौ व्यापादितौ। राजौरी जनपदस्य नौशेरायाः लाम संभागे ह्यः रात्रौ गोलिका प्रहारः जातः। सेना आतंकवादिनोः मध्ये जाते एतस्मिन् संघर्षे अनेके आतंकवादिनः व्रणिताः जाताः। ध्येयास्पदं वर्तते यत् अंधकारे एते आतंकवादिनः अवैधरीत्या प्रवेशं कुर्वन्तः आसन्। राजस्थानस्य बीकानेर जनपदस्य महाजन फील्ड फायरिंग रेंज इत्यत्र भारत अमेरिकीय सेनयोर्मध्ये संयुक्ताभ्यासः अद्य प्रातः सार्ध दशवादने समारब्धः। एतस्मिन् युद्धाभ्यासे भारतस्य दक्षिण पश्चिमीय नेतृत्वं अमेरिकायाः च आहत्य द्वादशशतं सैनिकाः भागं स्वीकुर्वन्ति। केन्द्रेण देशस्य राज्यानि केन्द्रशासित प्रदेशान् च अनुरोधितवान् यत् तैः वानरजनित संक्रमणस्य प्रकरणानि अन्वेष्टितव्यानि परीक्षितव्यानि च। केन्द्रीय स्वास्थ्य सचिवः अपूर्व चन्द्रा वानरजनित संक्रमणेन सम्बद्धस्य विश्व स्वास्थ्य संघटनस्य अन्ताराष्ट्रिय जन स्वास्थ्य आपदः घोषणां कृतवान्। मन्त्रालयेन एकस्यां विज्ञप्तौ सूचितं यत् राज्यस्तरीय जनपदस्तरीय च स्वास्थ्य सौविध्यानां सज्जतायाश्च त्वरितमेव समीक्षां भवितव्या। भाजपेति दलेन पश्चिमबंगस्य आरजीकर चिकित्सा महाविद्यालये एकया प्रशिक्षु चिकित्सिकया सह दुष्कर्मणः हत्यायाः च प्रकरणे निष्पक्ष अन्वेषणं सुनिश्चेतुं पश्चिमबंगालस्य मुख्यमन्त्रिणः ममता बनर्जी इत्यस्याः त्यागपत्रं याचितम्। नवदिल्ल्यां वार्ताहरान् सम्बोधयता भाजपेति दलस्य प्रवक्त्रा गौरव भाटिया इत्यनेन महिलाभ्यः सुरक्षाप्रदाने असफलतायै कोलकाता आरक्षि आयुक्तपदात् विमोचयितुम् अपि उक्तम्। श्रीभाटिया उक्तवान् यत् भाजपादलं पीडितपरिवाराय न्यायं पश्चिमबंगे च महिलानां सुरक्षां च इच्छति। आम आदमी पार्टीति दलेन अद्य हरियाणा विधानसभा निर्वाचनस्य 20 प्रत्याशिनां प्रथमा सूची प्रकाशिता। रोहतक आसनात् बिजेन्दर हुडा इन्दु शर्मा च भिवाणी आसनात् निर्वाचन समारांगणे भविष्यतः। केन्द्रीय स्वास्थ्य सचिवः अपूर्व चन्द्रा अद्य नवदिल्ल्यां 22,000+ 23,000+ वर्षयोः हेल्थ डायनेमिक्स ऑफ इंडिया इत्येतस्य वार्षिक प्रकाशनस्य विमोचनं कृतवान्। प्रतिवर्षम् अनेन प्रकाशनेन 31 मार्च पर्यन्तं स्वास्थ्याधारभूत संरचनासु मानव संसाधनेषु च व्यापक दत्तांशः प्रदीयते इति वार्ताः।